एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। विजयादशमी पर्वण अन्तर्गतम अद्य महाष्टमी पर्व महानवमी पर्व च समाद्रीयते। अद्य तिथेरनुसारेण अष्टमी नवमी च उभेपी तिथिस्त इत्यत उभेपी पर्वणि सहैव समाद्रीयते इति पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितमस्ति। महाष्टमी पर्वणि हिन्दव स्वस्व पूजागृहेषु षोडशोपचारै दुर्गां भगवतीं पूजयन्ति। एतदवसरे प्रक्षालितानि बाण खड्ग कुन्त त्रिशूल छुरिकादीनि शस्त्रास्त्राणि यन्त्राणि यन्त्रशालाश्च पूज्यन्ते। महाष्टम्यां रात्रौ पूजा गृहेषु शक्तिपीठेषु च बलिदान पुरस्सरं कालरात्र्याः योगिनीनाञ्च पूजनस्तवनादीनि विधीयन्ते। अद्य काष्ठमण्डप उपत्यकायाः गुहेश्वरी मैतीदेवी भद्रकाली दक्षिणकाली इन्द्रायणी रक्तकाली नरदेवी कालिकास्थान बगलामुखी नक्षाल भगवती शोभा भगवती विजयेश्वरी प्रभृतिषु शक्तिपीठेषु भगवत्याः दुर्गाया पूजन स्तवन बलि प्रदानार्थम् आधिक्येन भक्तजनानाम् उपस्थितिः आदिवसं दृश्यते। एवमेव उपत्यकायाः बहिः पलाञ्चुक भगवती मनकामना गढीमाई सखडा छिन्नमस्ता पाथिभरा दन्तकाली विन्ध्यवासिनी शैलेश्वरी बढीमालिका उग्रतारा भुवनेश्वरी अम्बिकेश्वरी बागेश्वरी प्रभृतिषु मन्दिरेषु दर्शन पूजनार्थं भक्तजनाः सम्प्राप्ताः वर्तन्ते। अद्य देव्यः शस्त्रास्त्र सहिता चतुरङ्गिणी सेना च सविधि प्रपूज्य पशुबलिम् असमर्पयन्तः जनाः अद्य पूजा प्रकोष्ठे स्वस्व कुल परम्परानुसारेण कर्कटी कुष्माण्ड मूलक नारिकेल फलादिनि समर्प्य पूजनं विदधति। आश्विन शुक्ल प्रतिपत्तिथौ वैदिक विधिपूर्वकं नवदुर्गा आह्वाय स्थापिते जलपूर्ण कलशे अद्यैव आश्विन शुक्ल नवम्यां तिथौ सश्रद्धं सविशेषञ्च प्रपूज्यन्ते। अस्मिन् सन्दर्भे आश्विन शुक्ल प्रतिपद महानवमीं यावत् जगन्मातृणां नवानां दुर्गाणां महाकाली महालक्ष्मी महासरस्वतीनां कुमारीणाञ्च सविधि पूजनेन सप्तशत्याः देवी भागवतस्य च पाठात् विजयादशम्यां विसर्जितस्य घटस्य अभिषेकात् एवाङ्कुरधारणात् प्रसाद ग्रहणाच्च वर्षं सुखशान्ति सुस्वास्थ्यानि वर्धन्ते अपमृत्यवश्च नश्यन्तीति शास्त्रीय मान्यता अस्ति। अद्य हनुमद्वारस्थे ऐतिहासिके तलेजु भवान्यः मन्दिरे भवरोगापहारिण्यः भवान्यः दर्शन पूजन स्तवनार्थम् अधुना पारिश्रहस्रं भक्तजनाः पंक्तिबद्धतया उपस्थिताः सन्ति। मन्दिरमिदं प्रतिवर्षम् अस्यामेव तिथौ एकवारं सर्वसाधारण जनतायाः कृते उद्घाट्यते। महानवमी पर्वणि जनाः द्विचक्रिकायानादीनि स्वकीय वाहनानि च बलिप्रदानपूर्वकम् पूजयन्ति। राष्ट्रपतेः रामचन्द्र पौडेलस्य प्रमुखातिथे नेपाली सेनाया टोडेखेलवर्तिनी सैनिक मञ्चे गतदिने फूलपाती पर्वोत्सव समारोह आयोजित। विजयादशमी पर्वण सप्तम दिवसीय अवसरम आलक्ष्य आयोजिते फूलपाती पर्वोत्सव वर्धापन कार्यक्रमे सैनिक कौशलम प्रदर्शितम आसीत्। समारोहे उपराष्ट्रपति रामसहाय प्रसाद यादव प्रधानमन्त्री केपी शर्मा ओली प्रधान न्यायाधीश प्रकाश मानसिंह राउत सभामुख देवराज घिमिरे राष्ट्रसभाया अध्यक्ष नारायण प्रसाद दाहाल उप प्रधानमन्त्री मन्त्रिणः विशिष्ट महानुभावाश्च सहभागिनः आसन्। नेपालानां महत विजयादशमी पर्वणः कृते राजधान्यः काष्ठमण्डपात् स्वगृहं प्रति गन्तुकामः अष्टलक्ष्याधिकाः जनाः उपत्यकातः बहिर्गताः सन्तीति नेपाल यातायात व्यवसायी राष्ट्रिय महासंघेन ज्ञापितमस्ति। अस्य वर्षस्य विजयादशमी पर्वणः अवसरे पञ्चदश लक्ष्याधिकानां जनानां काष्ठमण्डप उपत्यकातः बहिर्गमनस्य अनुमानेऽपि जलविप्लव भूस्खलनयोः कारणेन मार्गेषु अवरोधेषु सत्सु अनुमानापेक्षया न्यूनः एव जनाः काष्ठमण्डपात् बहिर्गताः सन्तीति महासंघस्य अध्यक्षः विजय स्वार अज्ञापयत्। अद्यापि राजधान्यः गोङ्गबु कलंकी कोटेश्वर प्रभृतिषु क्षेत्रेषु स्वगृह ग्रामं प्रति गन्तुकामानां जनानां सम्मर्दः दृश्यते। सत्तारूढेन नेकपा एमाले दलेन प्राकृतिक विपद्भि ध्वस्त गृहाणां दशसहस्राधिकानां परिवाराणां कृते शीघ्रातिशीघ्रं पुनर्वासस्य व्यवस्थायै सर्वकारः अनुरुद्धोऽस्ति। ललितपुर च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालय केन्द्रीय कार्यालय ह्य उपविष्टेन सचिवालय उपवेशेन विपद प्रभावितेभ्यो परिवारेभ्य शीघ्रातिशीघ्र पुनर्वासस्य व्यवस्थायै सर्वकारस्य ध्यानाकर्षणं विहितं वर्तते। सचिवालय उपवेशस्य पश्चात् संचारकर्मिभिस्सह दलस्य उपमहासचिव प्रदीप गेवाली प्राकृतिक विपदां सर्वकारस्य क्षमतायाश्च अन्तरालस्य कारणात् असहजासु परिस्थितिषु विद्यमानास्वपि सर्वकारेण इतोऽपि सक्रियतया विपत् प्रभावितानां पुनर्वासस्य पुनर्निर्माणस्य च कृते प्रभावकारितया कार्यं कर्तव्यम् इति प्रावोचत्। उपवेशेन मार्गशीर्ष मासे आयोक्ष्यमाणे उपनिर्वाचने सम्बद्धा दलसमितिः सक्रियतया परिचाल्य कार्यस्य नेतृत्वं प्रदेशसमित्या विधातुम् उपनिर्वाचनस्य पूर्वकार्याय आह्वानं विहितमस्ति इति उपमहासचिवः गेवाली अज्ञापयत्। दोलखा जनपदस्य भीमेश्वर नगरपालिकायाः अष्टम वडा क्षेत्रस्य बोस्को चरणावर्ती सेतोः निकटे ह्यः बसयानं दुर्घटितं सत् एको जनः मृतोऽस्ति। दुर्घटनायां सप्त जनाः आहताः सन्ति इति प्रहरिणा ज्ञापितं वर्तते। इति समाचारः।